अजन्त एमि तन्वा पुरस्ताद्विश्वे देवा अभिमाजन्ति पश्चात् यदा मह्यन्ति धरो भागमिन्द्राजन्मजा कृणवो वीर्याणि दधामि देवधनो भक्षमग्रे हितस्ते भागस्वतो अस्तु सोमाः असश्चत्वम् दक्षिणतः सखा मेधा वृत्राणि जङ्घना बभोरि प्रसस्तोमम् भरतवा जयन्त इन्द्राज सत्यम् यदि सत्यमस्ति नेन्द्रो अस्तीति नेम उत्त आहक ईन्ददर्शकमभिष्टपाम अयमस्मि चरितः पश्य मेह विश्वा जाताञ्जभ्यस्मि मह्ना हृदस्य वा प्रदिशो वर्धयन्त्यादर्तिरो भुवनादर्दरीमि आजन्मा वेना अर्हन् हृदस्याम् एकमासेनम् हर्यतस्य पृष्ठे मनश्चिन्मे हृद प्रत्यवोचदचिक्रदञ्छिषमन्तः सखाजः विश्वेत्तादेशवनेषु प्रवाच्याजा चकर्थमघवन्निन्द्रसुन्वते पारावतयत्परसम्भृतम् वस्वपावृणोः शरभाजर्षिबन्धवे प्रणोनन्धावता पृथङ्गेहयो भो अपावरीत दिशेम् वृत्रस्य मर्मणि वज्रमिन्द्रो अपीपतत मनोजभा अजमान आजसेमतरत्परम् दिवम् सुपर्णो गत्वा जसोमम् वज्रण आभरत समुद्रे अन्तश्रयत उद्ना वज्रो अभिवृतः भरञ्जस्मै संयतः पुरः प्रस्रवणा बलिम् यत्वाग्वदञ्ज विजयतना निराष्ट्री देवानान्निशसाद मन्त्रा चतस्र ऊर्जम् ददहेपजांसिक्वस्विदस्याः परमञ्जगाम देवीम् वाचमजनयन्त देवास्ताम् विश्वरूपाः पशवो वदन्ति सा नो मन्त्रे समोर्जन्तः नाधेनुर्वागस्मानुपसुष्टुतैतो सखे विष्णावितरम् विक्रमस्पद्योर्देहि लोकम् वज्राज विश्वभे हनावृत्रम् ऋणचा वसिन्धो निन्द्रस्य यन्तः प्रसवे विसृष्टोः